इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका कामना झाः। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणाय शिशिभ्यश्च चरणेभ्यः नैर्वाचनिक प्रचाराभियानम् तीव्रं जातम्। रक्षा सचिवः गिरिधर अरमानी सबलं प्रत्यपादयत् यत् रक्षा क्षेत्रे आधारभूत संरचनागत विकासाय देशाय आत्मनिर्भरता महत्वपूर्णा वर्तते। एयर इंडिया एक्सप्रेस इत्यनया विमान सेवया स्ववरिष्ठ चालक दलस्य 25 सदस्यानां सेवा निरस्तीकृता। केंद्रीय अन्वेषण अभिकरणेन दिल्लयाः राम मनोहर लोहिया चिकित्सालये चिकित्सकीय प्रवञ्चनाम् उद्घाटयन् चिकित्सक द्वयं समेत्य 11 जनाः निगडिताः। अपि च क्रीडा वार्तासु आईपीएल इत्यस्याम् क्रिकेट प्रतिस्पर्धायाम् अद्य धर्मशालायाम् पंजाब किंग्स दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलेन सह भविष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य चतुर्थ चरणाय शेषेभ्यश्च चरणेभ्यः नैर्वाचनिक प्रचाराभियानं तीव्रं जातम्। विविध राजनीतिक दलीयाः नेतारः जनसभाः मार्गे प्रदर्शनानि च विदधति। चतुर्थ चरणस्य मतदानम् अस्य मासस्य 13 दिनांके 96 च आसनेभ्यः 10 राज्येषु 1 केन्द्रशासित प्रदेशे च भविष्यति। 17% प्रत्याशिन भाग्य निर्णयः अपि अस्मिन्नेव चरणे सम्भाव्यते। चतुर्थ चरणीय मतदान अवलोक्य प्रख्यात नेतारः निज प्रत्याशी समर्थने मतदानाय आवाहनं कुर्वन्ति। भाजपेति दलस्य वरिष्ठः नेता अमित शाह अद्य भुंगीर लोकसभा क्षेत्रं प्रति यास्यति। तत्र असौ दल प्रत्याशिनः डॉ. बूरा नरसैया गौडस्य समर्थनाय प्रचारं करिष्यति। तत्रैव कांग्रेस दल नेता राहुल गांधी अपि अद्य तेलंगाना राज्ये प्रचार अभियाने एकस्मिन् भागं भजिष्यति। अपि च हैदराबाद नगरस्य बाह्य क्षेत्रे सरूर नगरे एकं सार्वजनिक उपवेशनं संबोधयिष्यति। बीआरएस प्रमुखः तेलंगानायाः पूर्व मुख्यमंत्री के चंद्रशेखर रावः अपि मार्गे प्रदर्शनं विधास्यति। रक्षा सचिवः गिरिधर अरमानी सबलं प्रत्यपादयत् यत् रक्षा क्षेत्रे आधारभूत संरचनागत विकासाय आत्मनिर्भरता महत्वपूर्णा वर्तते। तेनोक्तं यत् देशः अस्मिन् क्षेत्रे पराश्रितः नैव भवितुं शक्यते। अद्य नवदिल्ल्यां रक्षा अनुसंधान विकास संघटनस्य राष्ट्रीय संगोष्ठ्याः प्रदर्शन्याश्च औद्घाटनिक सत्रं संबोधयन् असौ अकथयत् यत् आत्मनिर्भरता उद्घोष मात्रं नैव अपितु देशस्य आर्थिक विकासस्य महत्वपूर्ण सत्रं वर्तते। आत्मनिर्भरतया संरचनागत विकासाय मूल्य राशि अल्पो भविष्यति। युक्रेन देशाय अमेरिका देशस्य विलम्बेन प्राप्तस्यते सहायस्य उद्धरणं प्रदत्त्वा श्री अरमानी प्रोक्तवान् यत् विश्वस्य भूराजनीत्यां कमपि विश्वसनीय मित्रं नास्ति, अपि च देशः नराश्रितो भवेत् इति। असौ अत्रावसरे रक्षाक्षेत्राय नवाचार उन्नत प्रौद्योगिक्या निर्मित उपकरणानाम् आवश्यकताम् अपि कथितवान्। एयर इंडिया एक्सप्रेस इत्यनया विमान सेवया स्ववरिष्ठ चालक दलस्य 25 सदस्यानां सेवा निरस्तीकृता। पूर्व सूचनायाः अभावेन एतेषां सदस्यानां अवकाशगमनेन एयर इंडिया एक्सप्रेस विमान सेवाः प्रभाविताः जाताः, येन हि साम्प्रतं यावत् 80 उड्डयन सेवाः बाधिताः जाताः, अद्यपि 85 उड्डयनानि निरस्तीकृतानि। अनेन कारणेन प्रभाविताः यात्रिणः प्रतिदानं स्वीकरिष्यन्ति उत्वा अग्रिमतिथये यात्राविवरणं पुनः सुनिश्चित करिष्यति अन्यया एयर इंडिया एक्सप्रेस विमानसेवया प्रोदीरितं यत् सम्प्रति अद्य संयोगिन्याः एयर इंडिया सेवायाः साहाय्येन 20 यात्रागत मार्गेषु 83,200 उड्डयनानां संचालनं करिष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमो अयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषे तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय अन्वेषण अभिकरणेन दिल्ल्याः राम मनोहर लोहिया चिकित्सालये चिकित्सकीय प्रवञ्चनाम् उद्घाटयन् चिकित्सकद्वयं समेत्य 11 जनाः निगडिताः। एतेषु निगडितजनेषु चिकित्सकीय उपकरणानाम् आपूर्ति कर्तृभिः मूल्यप्रदानस्य पञ्जीकरण सौविध्यं प्रदानस्य रोगिभ्यः अवैधरीत्या राशिग्रहणस्य अनुचित चिकित्सकीय प्रमाणपत्र निर्माणस्य च आरोपाः वर्तन्ते। निर्वाचन आयोगेन लोकसभा निर्वाचनस्य मतदानाय दिल्ल्यां निवसतेभ्यः कश्मीर प्रदेशीय प्रवासिभ्यः राष्ट्रिय राजधान्यां विभिन्नेषु स्थानेषु विशिष्टानि मतदातृ केन्द्राणि संस्थापितानि। एतानि केन्द्राणि कश्मीर रेजिडेंट कमीशन इत्यत्र, कश्मीर किसान घर BR2 शालीमार बाग इत्यत्र, अवार्चनिक इंटरनेशनल पब्लिक स्कूल पॉकेट एफ दिलशाद गार्डन इत्यत्र अपि अथ च अनेकेषु स्थलेषु संस्थापितानि। अद्य लोकसभा निर्वाचनस्य षष्ठचरणस्य नामांकन प्रत्यावर्तनस्य अन्तिमः दिवसो वर्तते। अस्मिन् चरणे मई मासस्य 25 दिनांके षड् राज्येषु केन्द्रशासित प्रदेशे च 57 आसनेभ्यः मतदानं भविष्यति। षष्ठचरणे दिल्लीनगरस्य सर्वेषु 7 आसनेषु, हरियाणा राज्यस्य 10 आसनेषु, उत्तरप्रदेशस्य 4 आसनेषु, बिहार पश्चिम बंगाल राज्ययोः 8 आसनेषु, ओडिशा राज्यस्य 6 आसनेषु, झारखंड राज्यस्य 4 आसनेषु च मतदानं भविष्यति। लोकसभा निर्वाचनस्य मतगणना जून मासस्य 4 दिनांके भविष्यति। भारतस्य विदेश सचिवः विनय मोहन क्वात्रा अद्य प्रातः ढाका नगरे बांग्लादेशस्य प्रधानमन्त्रिणा शेख हसीना इत्यनया सह एकम् उपवेशनं विहितवान्। अत्रावसरे बांग्लादेशस्य विदेशमन्त्रिणा हसन महमूदेन सह अपि मेलनं कृतवान्। अवधेयं वर्तते यत् भारतीय विदेश सचिवः श्री क्वात्रा बांग्लादेशस्य द्विदिवसीय आधिकारिक यात्रायाम् अस्ति। असौ बुधवासरे सायंकाले ढाका नगरं सम्प्राप्तवान्। अद्य एषः स्वकीयेन बांग्लादेशेन समकक्षेन मसूद बिन मुमेन इत्यनेन सह उपवेशनं करिष्यति। उपवेशनावधौ राजनीतिक सुरक्षा, जलव्यापार, निवेश, विद्युतापूर्ति, रक्षा इत्यादिषु विषयेषु चर्चा भविष्यति इति। आईपीएल इत्यस्याम् क्रिकेट प्रतिस्पर्धायाम् अद्य धर्मशालायाम् पंजाब किंग्स दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलेन सह भविष्यति। गतरात्रौ हैदराबाद नगरे जातायाम् स्पर्धायाम् सनराइजर्स हैदराबाद दलम् लखनऊ सुपर जायंट्स दलम् 10 पराजितवत्। अथ मुख्य वार्ताः पुनः एकवारम्। लोकसभा निर्वाचनस्य चतुर्थ चरणाय शेषेभ्य चरणेभ्य नैर्वाचनिक प्रचाराभियानं तीव्रं जातम्। रक्षा सचिव गिरिधर अरमाने सबलं प्रत्यपादयत् यत् रक्षा क्षेत्रे आधारभूत संरचनागत विकासाय आत्मनिर्भरता महत्वपूर्णा वर्तते। एयर इंडिया एक्सप्रेस इत्यनया विमानसेवाया स्ववरिष्ठ चालक दलस्य 25 सदस्यानां सेवा निरस्तीकृता इति वार्ताः।